एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रतिनिधि सभायाः निर्वाचनस्य सन्दर्भे निर्वाचन आयोगेन सर्वकारेण राजनीतिक दलैः नागरिक प्रतिनिधिभिश्च सह विमृष्टम् वर्तते। सिंहप्रसादवर्तिनी प्रधानमन्त्री कार्यालये ह्य सम्भूते विमर्शने कार्यवाहक प्रमुख निर्वाचन आयुक्तेन रामप्रसाद भण्डारिणा आयोगः सर्वकारस्य प्राथमिकतायाः अनुसारेण आगामिनः फाल्गुन मासस्य एकविंशे दिवसे प्रतिनिधि सभा सदस्यानां निर्वाचनं सम्पादयितुं पूर्णतया प्रतिबद्धोऽस्तीति उक्तम् अस्ति। तदवसरे कार्यवाहक प्रमुख निर्वाचन आयुक्त भण्डारी प्रत्याशिता पत्रस्य पंजीकरणानन्तरं सुरक्षा सम्बद्धायाः नीतेः परिमार्जनस्य अभावे सति निर्वाचनस्य समये एव सम्पादनाय समस्या भवितुं शक्नोति। त्यतः शान्ति सुरक्षया सम्बद्धान् निकायान् गृहमन्त्रालयं च समय एव पूर्वकार्यं सम्पादयितुम् अनुरुणत्। असौ अगदत् फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य निर्वाचनस्य कृते विधेयरनुसारेण कार्यविधिः निर्देशिका आचार संहिता च निर्मिताः सन्तीति चर्चयन् अतः परं दलानां सहमत्या सर्वकारस्य च समन्वयेन च आचार संहिता क्रियान्विष्यते। उपवेशे समानुपातिक निर्वाचन प्रणाल्याः प्रत्याशिनां नाम्नां प्रस्तुतेः समयस्य परिवर्तनेन निर्वाचन प्रक्रियायां प्रभावो भविष्यति। त्यतः समये परिवर्तनं न कर्तुम् आयोगेन अनुरुद्धमस्ति। उद्घुष्टम् निर्वाचनम् सम्पादयितुम् स्वल्प समयः सीमित जनशक्तिश्चास्ति। त्यतः तालिकायाम् परिवर्तनम् न सम्भवतीति तदवसरे कार्यवाहक प्रमुखायुक्त भण्डारी समस्पष्टयत्। उपवेशे प्रधानमन्त्री सुशीला कार्की सर्वाणि राजनीतिक दलानि निर्वाचन प्रक्रियायाम् भागम् गृहीत्वा शान्तिम् संस्थापयितुम् आहूतवती अस्ति। प्रधानमन्त्री कार्की सर्वकारः पूर्णतया सुरक्षायाः वातावरणं निर्मातुं संलग्नोऽस्ति। त्यतः निर्भयेन निर्वाचने भागं ग्रहीतुम् अन्वरुणात्। अत्रान्तरे आराष्ट्रं दशलक्षाणि षोडश सहस्राणि सप्तशतं चतुःपञ्चाशत् च मतदातारः वर्धिताः वर्तन्ते। ह्य प्रतिनिधिसभायाः निर्वाचनस्य विषये सिंहप्रसादे आयोजिते विमर्शने निर्वाचन आयोगस्य सहसचिवः प्रवक्ता च नारायण प्रसाद भट्टराई सम्प्रति प्रतिनिधिसभा सदस्यानां निर्वाचनस्य प्रयोजनाय निर्वाचनायोगे पंजीभूतानां दलानां संख्या चतुर्दशोत्तरैकशतम् अस्तीति असूचयत। सहसचिवः भट्टराई निर्वाचने प्रयोक्ष्यमाणाः एकपञ्चाशत् सामग्र्यः निर्वाचन आयोगेन परिचिताः वर्तन्ते इति ज्ञापितवान्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति आगामिनः फाल्गुन मासस्य एकविंशे दिवसे निर्धारितस्य निर्वाचनस्य सफलीकरणं समेषां नेपालीनां दायित्वं वर्तते। मानवाधिकार शान्ति समाजस्य प्रतिनिधिमण्डलेन सह पूर्वे द्युः मेलनस्य क्रमे राष्ट्रपतिः पौडेलः बहुदलीय लोकतान्त्रिक शासन प्रणाल्यां दीर्घकालं यावद् निर्दलीय सर्वकारस्य विद्यमानता लोकतन्त्रस्य मूलमान्यतायाः नागरिकाणां सर्वोच्चतायाश्च विपरीता भवतीति प्रावोचत। तदवसरे राष्ट्रपतिः पौडेलः आगामिनः फाल्गुन मासस्य एकविंशे दिवसे निर्धारितं निर्वाचनं न सम्पादयिष्यते तर्हि देशः अनिश्चयस्य मार्गेऽपि गन्तुं शक्ष्यतीति सम्भावना प्रादर्शयत्। नेपाली कांग्रेस दलस्य सभापतेः शेरबहादुर देवाविदस्य नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओलीनस्य मध्ये मेलवार्ता सम्भूतास्ति। महाराजगंजवर्तिनी देवानिवासे ह्य सम्भूते मेलने अनयोर्मध्ये सामयिक राजनीतिक विषयेष् विमृष्टमस्तीति सभापतेः देवाविदस्य सचिवालयेन ज्ञापितं वर्तते। इतःपूर्वं मार्गशीर्ष मासस्य एकोनविंशे दिवसेऽपि सभापते देवाविदस्य अध्यक्षस्य ओलीनस्य मध्ये मेलवार्ता सम्भूतासीत्। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा निगदति दलेन पञ्चदश महाधिवेशनम् सम्पाद्य निर्वाचने भागः ग्रहणीयः। काष्ठमण्डपस्य षष्ठ निर्वाचन क्षेत्रे पूर्वे द्युः आयोजिते कार्यक्रमे महामन्त्री थापा कांग्रेस दलेन नियमित महाधिवेशनस्य सम्पादनाय असम्भवे सति विशेष महाधिवेशनम् सम्पाद्य अपि निर्वाचने भागः ग्रहणीय इति उदैरयत्। महामन्त्री थापा जेएनजी युव सन्ततेः मर्मणः भावनायाश्चानुसारेण दलैः आत्मानं संशोध्य अग्रे वर्धनस्य विकल्पो नास्तीति धारणां व्यक्तवान्। एमसीए नेपाल नाम्न्यः मिलेनियम च्यालेंज एकाउंट नेपाल विकास समितेः अन्तर्गतं निर्मीयमाणायाः मार्गद्वयस्य आयोजनायाः कृते आसन्न कोटिद्वयस्य सप्तत्रिंशतो लक्षाणां च अमेरिका देशीय डलर मुद्राणां संविदा सम्भूतास्ति। एमसीए नेपालेन ह्यः प्रकाशितायाः विज्ञप्तेः अनुसारेण एमसीसी नेपाल योजनायाः अन्तर्गतायाः मार्ग सम्भारा योजनायाः क्रियान्वयनस्य क्रमे पूर्व पश्चिम राजमार्गस्य धानखोला लमही मार्गखण्डस्य स्तरोन्नतये आसन्न कोटिद्वयस्य अमेरिका देशीय डलर मुद्राणां संविदा विहितास्ति। एवमेव एमसीए नेपाले सम्प्रत्येव अस्य मार्गखण्डस्य स्तरोन्नतेः कार्याय नारायणघाट मुङलिङ मार्गखण्डस्य आवधिक सम्भार कार्यस्य सुपरिवेक्षणाय आसन्न 10.37 उत्तरसेणां लक्षणां अमेरिका देशीय डलर मुद्राणां संविदा विहितास्तीति विज्ञप्तो ज्ञापितं वर्तते। गृहमन्त्री ओम प्रकाश आर्यालः निगदति विपदः पूर्वकार्यम् इतोऽपि सबलं संस्थागतं व्यापकं च विधातुं सर्वकारः पूर्णतया प्रतिबद्धो वर्तते। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ह्यस्तन दिवसात् खुमलटारवर्तिनी अन्तर्राष्ट्रियकृत पर्वतीय विकास केन्द्रे आयोजिते पूर्वानुमाने आधृते पूर्वकार्य सम्बद्धे च चतुर्थे राष्ट्रिय संवादे गृहमन्त्री अर्यालः दिनद्वयात्मकेन राष्ट्रिय संवादेन नवीनस्य शिक्षणस्य नवीनस्य विचारस्य सुदृढस्य सहकार्यस्य च आधारं निर्माय दीर्घकालिक रूपेण विपदा आपतितानां मानवीयानां भौतिकीनां च क्षतिनां न्यूनीकरणाय सहयोगो भविष्यति इति विश्वासम् अभिव्यनक। इति समाचाराः।